पुस्तकं पठ्यते तस्य मङ्गलश्लोकः पठनीयः ततः आरम्भं कुर्मः नियतिकृतनियमरहिताम्
नियतिकृतनियमरहिताम्
क्लादैकमी अनन्यपरतन्त्राम्
नवरसरुचिराम् निर्मितिम् आदधति भारती कवेर्जयति द्विसप्ततिः
कालप्रकाशनामकस्य इदानीम् आरभ्यस्य ग्रन्थस्य मङ्गलपद्यम् काव्यप्रकाशं कः लिखितवान् इति चेत् मम्मटः लेखनं कृतवान् अस्य आलङ्कारिकाः प्रायः बहवः काश्मीरदेशीयाः अस्माकं देशे बहवः तत्र मम्मटोपि अन्यतमः भवन्तः इदानीं ध्वन्यालोकस्य विषये कांश्चित् विचारः ज्ञातवन्तः ध्वनिः इति एकः नूतनमार्गः तेन प्रतिष्ठापितः इत्यादिकं भवन्तः ज्ञातवन्तः वस्तुतः आलङ्कारिकाः केचन प्राचीनाः अन्ये केचन नूतनाः तथा विभागमपि कुर्वन्ति तादृश आनन्दवर्धनः तदनन्तरकालिकाः ये सन्ति ते सर्वेपि किञ्चिदेव आधुनिकाः आलङ्कारिकाः इति अनन्तरकाले आगताः इति कथ्यते आनन्दवर्धनस्य कालस्य अनन्तरम् अयम् मम्मटः यः अस्ति आनन्दवर्धनादीनां कालस्य अनन्तरम् अयमागतः अस्ति यद्यपि आनन्दवर्धनः नूतनतया एकस्य काव्यमार्गस्य आरम्भं कृत्वा ध्वनिप्रस्थानं ध्वनिदेव काव्यस्य आत्मा इत्यादि सर्वं सम्यगेव प्रतिष्ठापितवान् तथापि सः सिद्धान्तः यद्यपि सर्वोत्कृष्टः एव ध्वनिसिद्धान्तः तथापि सामान्यान् मनसि निधाय सामान्यतः काव्ये आत्मभूतं कर्तुं किम् इति पृच्छामश्चेत् अन्ततो गत्वा रसः एव आत्मभूतं कर्तुम् इति वक्तुं तस्य प्रतिपादनं सर्वम् अनन्तरकालिकाः आलङ्कारिकाः सर्वेपि कृतवन्तः एवम् आगतवस्तु आलङ्कारिकेषु अत्यन्तं प्रमाणभूतः कः इति चेत् मम्मटः काव्यप्रकाशनामके स्वस्य ग्रन्थे तावत्पर्यन्तम् अलङ्कारशास्त्रे ये विचाराः आगतासन् तान् सर्वानपि सम्यक् परिशील्य सः सर्वत्रापि अयमेव निर्णयः इतिवत् सः निर्णयं साधितवान् यद्यपि अनन्तरम् आगताः पुनः परिष्कारं कृतवन्तः तथापि सामान्यतः अलङ्कारशास्त्रे बहुषु विषयेषु मम्मटस्य विषयः एव सर्वमान्यः इति परिगण्यते बहुषु सः अन्यमपि कञ्चन ग्रन्थं लिखितवान् इति कुत्रापि अस्ति किन्तु विशिष्य काव्यप्रकाशस्य लेखनादेव सः अजरामरः अभवत् एकमेव ग्रन्थं प्रायः अन्यस्य नाम श्रूयते प्राप्तं न प्राप्तम् इत्यत्र संशयः अस्ति कुत्रचित् प्राप्तम् इत्यस्ति अन्यत्र नास्ति भवतु नाम एकेनैव ग्रन्थेन सः विश्वविख्यातः अभवत् कथं विश्वविख्यातः भवति इत्युक्ते प्राचीनकाले मम्मटस्य काले एवं प्रतीतिरासीत् मम्मटस्य अनन्तरकाले बहवः विद्वांसः काव्यप्रकाशस्य निमित्तं टीकां लिखितवन्तः इदानीम् अन्यस्य कस्यापि ग्रन्थस्य एतावत्यः टीकाः न लभ्यन्ते अतः कश्चन तदेव वाक्यमपि लिखितवान् काव्यप्रकाशस्य टीका गृहे गृहे कृता इत्युक्ते कश्चन विद्वान् अस्ति वा नास्ति वा इति ज्ञातव्यं चेत् तेन काव्यप्रकाशस्य निमित्तं टीका लिखिता नास्ति वा नास्ति वा इति पुरातनकाले अस्माकं प्रदेशेपि तथा आसीत् विशिष्य हरेमित्तूरुप्रदेशे इति वदन्ति कश्चन जानाति जानाति इत्यपेक्षयापि वदन्ति स्म कन्या दातव्या चेत् वरस्य योग्यता परिशीलनं क्रियते किल तदा सः कथं जैमिनीयभारतस्य अर्थं वक्तुं शक्नोति वा तथा अस्ति चेत् सः योग्यः इति दृश्यते तथा आसीत् इति तद्वत् इदानीं विदिशां मध्ये काव्यप्रकाशस्य अध्ययनं कृतवान् अस्ति वा तस्य टीकां रचितवान् भवान् अत एव प्रायशः पञ्चाशत् अधिकाः काव्यप्रकाशस्य टीकाः लभ्यन्ते इदानीं सद्यः काले अस्माकं मित्रमेव एकः सुहृत् काव्यप्रकाशस्य नूतनाम् अन्यामेकां टीकां प्राप्य तस्य प्रकाशनं कृतवान् तस्य पि एच् डि इति अतः काव्यप्रकाशस्य टीकाः शताधिकाः अपि कदाचित् निर्मिताः यतः तस्य ग्रन्थस्य विषये समग्रे देशे चर्चा अभवत् अतः तावत्य टीकाः रचिताः अभवत् अतः अलङ्कारशास्त्रे प्रमाणत्वेन स्वीकृतः ग्रन्थः यस्य ग्रन्थस्य विषये अनन्तरकालिकाः सर्वेपि प्रायः अगौरवं दर्शयन्ति तस्य ग्रन्थस्य विषये केचन अंशाः तत्र ग्रन्थारम्भे विघ्नविघाताय समुचित इष्टदेवतां ग्रन्थकृत् परामृशति वयं ग्रन्थस्य साक्षात् पठनस्य आरम्भं कुर्मः त्रिसप्ततिः पृष्ठसङ्ख्या अग्रे सर्वम् इन्ट्रोडक्षन् इत्यादि बहु अस्ति तत्सर्वं भवद्भिः स्वयं पठितुं शक्यम् अतः तस्य सर्वस्य पाठनं मया न क्रियते त्रिसप्ततितमे पृष्ठे अस्ति
परामृशति शब्दस्य
परामर्शं करोति पृशति वदति इति वर्तते तात्पर्यम् अत्र सः परामृशति ग्रन्थारम्भे विघ्नविघाताय विघ्नस्य निवारणाय समुचित इष्टदेवतां तस्य उचिता इष्टदेवता या अस्ति तां स्मरन्तः तस्याः विषये ग्रन्थकृते परामर्शं करोति नियतकृतिनियमरहितां प्रादयिकमयीम् अनन्यपरतन्त्रां नवरसविचिरां निर्मितिम् आदधति भारती कवेः जयति कवेः भारती जयति काव्यविषयकः ग्रन्थः अयमस्ति कविवचनं विदति तद्विषयकः ग्रन्थः अस्ति अतः कवेः भारती भारती नाम वाक्यविमोचनं कवेः वाणी कवेः भारती जयति जयति नाम युद्धं कृत्वा जयं प्राप्नोति इत्यर्थः न सर्वोत्कृष्टेन तिष्ठति इत्यर्थः जयति सर्वत्रापि जयति पराशरसूनुः सत्यवती हृदयनन्दनो जातः तादृशेषु वाक्येषु सर्वत्रापि जयति नाम सर्वोत्कृष्टेण विलसति कवेः वाणी जयति कवेः भारती जयति सा च वाणी कीदृशी इति चेत् नियतकृतिनियमरहिता क्लादयितमयी अनन्यपदसङ्ख्या नवरसरुचिनां निर्मितिम् आदत्वाना आदधति इति कानिचित् विशेषणानि दत्तानि सन्ति तेषाम् अर्थः कः इति चेत् स एव अग्रे लिखति तदेव पठामि नियति शक्त्या नियतरूपा सुखदुःखमोहस्वभावा परमान्वादि उपादानकर्मादिसहकारिका कारणपरतन्त्रा नियतिकृताः केचन नियमाः सन्ति ब्रह्मणः निर्माणं किञ्चिदस्ति कवेः निर्माणं किञ्चिदस्ति ब्रह्मा किमपि निर्माणं करोति चेत् तानि सर्वाणि अपि वस्तूनि नियतिकृतनियमसहिताः भवन्ति नियतिः ब्रह्म नियतिना ब्रह्मणा ये नियमाः क्रियन्ते नियतिकृतनियमाः सन्ति तत्सहिताः भवन्ति ब्रह्मणः कृतेः निमित्तं केचन नियमाः सन्ति एतदेवमेव अग्निः इत्युक्ते ऊर्ध्वज्वलनमेव तस्य गुणः जलमित्यस्य उपरिष्टात् अधः प्रवहति ते नियतिकृतनियमसहिता कवेः वाणी नियतिकृतनियमसहिता तदेव सति नियतिशक्त्या नियतरूपाः ये सन्ति तदतिरिक्ताः कीदृशः सुख दुःख मोहस्वभावः ब्रह्मसृष्टिः निर्मितिः या अस्ति सा सुखदुःखमोहस्वभावः ब्रह्मसृष्टिः अस्ति चेत् कुत्रचित् सुखं स्यात् दुःखं स्यात् मोहः स्यात् तत्सर्वं भवति एव मोहस्वभावः परमाण्वादि उपादानकर्मादि सहकारिकारणपरतन्त्र ब्रह्मसृष्टिः अस्ति किल तत्र उपादानकारणम् आवश्यकम् उपादानकारणं नाम घटः अस्ति घटस्य निमित्तं मन्यत् कपालः इत्युच्यते तादृशं किञ्चित् कारणं भवेत् तत्र परमाणः उपरमाणवः भवेयुः यादृशः परमाणुः अस्ति तादृशमेव वस्तु उत्पद्यते एते सर्वे नियमाः सन्ति अतः नियतिकृतनियमाः ये सन्ति तत्सहिताः सन्ति एते सर्वेपि एषा सृष्टिः तदनुसरति परमाणुवादि उपादानकर्मादि सहकारिकारणपरतन्त्र किं ब्रह्मसृष्टिः अस्ति तथैव नियति कृतरहित अस्ति अनन्तरं षड्रसा ब्रह्मा यां सृष्टिं करोति ब्रह्मणा सृष्टं विद्यते तत्सर्वमपि परिशीलयामश्चेत् तत्र प्रसिद्धाः षड्रसवः सन्ति तिक्तः मधुरः आम्लः कषायः लवणः कटु एतेषु अन्यतमः रसः तत्र भवेत् षड्रसेषु अन्यतर अन्यतमः रसः तत्र भवेत् एव कविः यां निर्मितिं करोति तत्र सा षड्रसः अस्ति तथैव न च हृद्या एव ब्रह्मणः हृद्या अस्ति सा हृद्या एव भवेत् इत्यस्य वा सर्वदा मधुरमेव प्रेम भवति इत्यस्य वा तादृशी ब्रह्मणः निर्मितिः नाम निर्माणं तादृशम् एतद्विलक्षणातो कविवां निर्मितिः कविवां निर्मितिः कविः वचसा यत् निर्माति तद् तस्मात् सर्वथा तद् कथं इदानीं स्वीकुर्मः चेत् नियतिकृतनियमरहिता अस्ति ब्रह्मणा कृताः ये नियमाः सन्ति तद्रहिता ता कवीनां निर्मितिः अनन्तरं ह्लादैकमयी अत्र ह्लादः एकः एव भवति मयि नाम मैट् स्वरूपार्थे मैट् प्रत्ययः अस्य स्वरूपं कीदृशम् इति चेत् ह्लादः एकः एव तत्र भवति ह्लादैकमयी अनन्यपरतन्त्राणाम् अन्यपरतन्त्रा नास्ति किमपि उपादानादिकारणं तादृशपारतन्त्र्यम् अस्य किमपि नास्ति यत्किमपि विदुमरति कविः कवेः वचने महति शिरोच्चये सुन्दरम् एकं पुष्पम् उत्पन्नम् इति भवितुमर्हति किन्तु ब्रह्मणः सृष्टौ भवितुमर्हति वा शिलानां मध्ये स्वयमेकं पुष्पम् उत्पद्यते इति नास्ति तदेकमर्हति तादृशम् अनन्तरम् अनन्यपरतन्त्राम् नवरसरुचिरां निर्मितिम् अत्र नवरसैः रुचिरा ब्रह्मणः सृष्टिः षड्रसैः एषा नवरसैः रुचिरा अस्ति तादृशीं निर्मितिम् आददति अन्तः निर्माणवन्नु माडबल्ल निर्मितिम् आददति कवेः वाणी जयति जयति इत्यर्थेन च नमस्कारः आक्षिप्यते एति शब्दस्य अर्थस्तु सर्वोत्कर्षेण तिष्ठति इति अर्थः तत्र किन्तु यतः जयति इति शब्दप्रयोगः कृतः अस्ति तस्मादेव नमस्कारः इत्यर्थोऽपि आक्षिप्यते सः अर्थोऽपि आक्षिप्तः अस्ति इति स्वीकरणीयम् इति तां प्रत्यस्य प्रणतः इति लभ्यते यतः सर्वोत्कर्षेण विराजते सः अर्थः सर्वोत्कर्षेण विराजते इति अहम् अङ्गीकरोमि इत्युक्ते पुरतः अहं तं नमस्करोमि इत्यर्थः अतः एवं मङ्गलश्लोकः पुनरेकवारं वदामः अभ्यासभविष्यः नियतिकृतनियमरहितां
लादैकमयीं अनन्यपरतन्त्राणां नवरसरुचिरां निर्मितम् आददति भारतीकवेर्जयति
कन्नडे विवरणमस्ति अनन्तरं सावधानं पठामि अग्रे काव्यप्रयोजनानि षट् सप्तमे इह अभिधेयं सप्रयोजनम् इत्याह इदानीम् अभिधेयं वक्तुं योग्यं तेन अभिधातुं योग्यं किमस्ति तद् प्रयोजनपुरस्सरमेव सप्रयोजनपुरस्सरम् अभिधेयं किमस्ति तेन काव्यस्वरूपं सर्वमपि वर्णनीयमस्ति तत् प्रयोजनसहितं तत् किमर्थं काव्यात् किं प्रयोजनम् इति आरभ्य सः इदानीं वर्णयति सप्रयोजनम् एवम् आह इदानीम् अग्रिमं पद्यं यदस्ति एतद् अत्यन्तं प्रसिद्धं न केवलं भवतां परीक्षादृष्ट्य समग्रवाङ्मयदृष्ट्यापि काव्यं नाम किं काव्यस्य प्रयोजनं किम् यदा कदापि भवन्तः या कापि भाषा भवतु कन्नडभाषायाम् आङ्ग्लभाषायां काव्यप्रयोजनानि नाम एकानि इति स्पष्टं भवति अतः एतद् सर्वे काव्यज्ञाः अवश्यं जानीयुः तादृशं पद्यते तद् पठामि काव्यं यशतेऽर्थकृते
काव्यं यशतेऽर्थकृते
व्यवहारविदे शिवेतरक्षतये
व्यवहारविदे शिवेतरक्षतये
सद्यः परनिर्वृतये
सद्यः परनिर्वृतये
निर्वृतये सद्यः परनिर्वृतये
सद्यः परनिर्वृतये
कांता सम्मिततया
कांता सम्मिततया
उपदेशयुजे
उपदेशयुजे
काव्य प्रयोजनानि अत्यन्तं स्पष्टतया अत्र विशदीकरोति. काव्यं किमर्थं भवति इति चेत् चतुर्थी वर्ति प्रयोगं कृतवान् अस्ति सर्वत्रापि. काव्यं यशसे भवति भवति इति अध्याहारः करणीयः. काव्यं किं निमित्तं भवति इति चेत् यशसे कश्चन काव्यं लिखति चेत् सः किं करोति तद्वारा यशः प्राप्नोति कीर्तिं प्राप्नोति. या कापि भाषा भवति तं सुन्दरं काव्यं लिखति चेत् सः यशः प्राप्नोति. सर्वे प्राप्नुवन्ति न प्राप्नुवन्ति तद्भिन्नं किं काव्यस्य एकं प्रयोजनं तु यशः प्राप्नोति. सद्यः पत्रिकायां पठितवन्तो वा गोपालकृष्णपै महोदयः स्वप्नसारस्वताय पुस्तकं लिखितवान् तेन जन्मने लिखि जन्मनि लिखितः एकः एव उपन्यासः कादम्बरी इदानीं केन्द्रसाहित्य अकाडेमी अवार्ड् प्राप्तवान् सः कीर्तिः महती कीर्तिः प्राप्ता अस्ति. अतः काव्यं यशसे कल्पते एषः कीर्तिः. अर्थकृते काव्यस्य लेखनं करोति चेत् तद्वारा अर्थसम्पादनं धनसम्पादनमपि भवितुमर्हति. कथम् इति अत्र वर्णनमस्ति. आधुनिककाले तु वयं जानीमः एव सामान्यः न महान्तः लेखकाः ये सन्ति ते एकमेव पुस्तकं लिखित्वा कोटिशासनं सम्पादयन्ति. तेलुगुभाषायां वेण्डमौलि वीरेन्द्रनाथ इत्यस्य सामान्यः आसीत् लेखनेनैव पुस्तकानि लिखित्वा ततः धनं तथा सम्पादितवान् कोटिभिक्षा भवति. तादृशः अतः अर्थसम्पादनमपि धनद्वारा भवितुमर्हति. काव्यस्य तदपि एकं प्रयोजनं व्यवहारविदे व्यवहारविद् नाम व्यवहारज्ञानम् इत्यर्थः. व्यवहारज्ञानाय लोकव्यवहारः कीदृशः भवति अस्माभिः कथं व्यवहारः करणीयः इति सर्वस्यापि ज्ञानं काव्यस्य पठने भवति. तत् काव्यं पठति चेत् तत्र कथं व्यवहारः कृतः अस्ति सर्वं वयं गच्छामः. अतः व्यवहारविदे अपि काव्यं कल्पते. शिवेतरक्षतये शिवं नाम मङ्गलं शिवेतर इत्युक्ते अमङ्गलम् अमङ्गलस्य क्षतये अमङ्गलस्य नाशाय. काव्यस्य पठनेन अथवा काव्यस्य लेखनेन अमङ्गलस्य नाशः भवति कथम् इति प्रश्नः खलु अत्र व्याख्याने अस्ति. अग्रे पठामः. कदाचित् काव्यपठनेन अमङ्गलं नश्यति व्याख्याने अस्ति तत् पठामः. अनन्तरं सद्यः परनिर्वृतये सद्यः झटिति एव पराधिर्वृतिः निर्वृतिः नाम सुखम् अत्यन्तं सुखं झटिति एव प्राप्तव्यं चेत् काव्यस्य लेखनं वा अथवा अध्ययनम् एतद् उभयता. काव्यस्य प्रयोजनम् इत्युक्ते कविः अस्ति यः लिखति तस्य दृष्ट्यापि प्रयोजनम् यः पठति तस्य दृष्ट्यापि प्रयोजनं तदपि भवेत् किल. कविः यः लिखति तस्यापि कश्चन लेखनानन्दः भवति यः पठति तस्य पठनानन्दः तस्यापि भवति. उभयतापि सद्यः परनिर्वृतिः भवति सद्यः परनिर्वृति निर्वृतये काव्यं भवति अन्तिमं भवति कान्तासम्मिततया उपदेशयुजे. सम्पूर्णमपि वाङ्मयं साहित्यं यदस्ति त्रिधा विभजनं तु प्रभुसम्मितं द्वितीयं मित्रसम्मितं तृतीयं कान्तासम्मितम् इति विभागं कुर्वन्ति. सर्वाणि वचनानि यानि सन्ति तादृशं सर्वमपि त्रिधा विभज्यते सम्पूर्णमपि वाङ्मयं. प्रभुसम्मितं नाम किम् इति चेत् प्रभुः नाम राजा यत्किञ्चित् आदिशति इति कश्चन राजा अस्ति नरसिंहस्य किं उक्तवान् उत्थाय गच्छ इति वदति तत्र गत्वा आगच्छ इति. किमर्थं गन्तव्यम् इति सेवकः प्रष्टुमर्हति वा इत्युक्ते राजाज्ञा कृता चेत् अवश्यं पालनीयं तद्विषये प्रश्नः अपि कर्तुं न शक्यते. तादृशं साहित्यं किञ्चित् भवति यथा वेदादयः सत्यं वद धर्मं चर स्वाध्यायात्माप्रमदः वेदवाक्यमस्ति सर्वं. किमर्थं प्रश्नः न करणीयः. किमर्थमिति चेत् तत् साहित्यमेव तादृशं प्रभुसंहितम् इति प्रभुसंहितमस्ति यथा आदिष्टमस्ति तथैव पालनम् अस्माभिः कर्तव्यम्। तादृशवाङ्मयविषयः अस्ति प्रवचनमिदं
स्वाध्याय
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् वदति मा प्रमदः इत्यादिकमस्ति तादृशं। तथैव तत् प्रवचनमिदम् अनन्तरमस्ति मित्रसंहितं। मित्रसंहितं नाम मित्रं यथा वदति तथा अस्मान् वदति। मित्रं कदाचित् अस्मान् किञ्चित् त्रयम् अभवत् अत्रयम् अभवत् सर्वं विशदीकृत्य अनन्तरं सः तस्य अभिप्रायं वदति। तादृशं पुराणसाहित्यं रामस्य कथां वर्णयित्वा अन्यस्मिन् वर्णयित्वा पुराणादिकं सर्वम् एतत् सर्वमपि मित्रसंहितं कण्ठसंहितं द्वितीयं मित्रसंहितं तृतीयम् अस्ति कान्तासंहितं। कान्तासंहितं नाम कान्ता या अस्ति कान्ता नाम
पत्नी
प्रियापत्नी कान्ता अस्ति कान्ता सर्वमपि किं विषदीकृत्य वर्णयित्वा अनन्तरं पश्यतु तत्र एवम् अभवत् अत्र एवम् अभवत् इत्यादिकमपि उक्त्वा प्रियैः वचनैः किं न कर्तव्यं किं कर्तव्यम् इति बोधयति। कान्तासंहितं नाम कार्यम् इत्युक्ते प्रथमं पत्युः किम् अवधानम् आकृष्य अनन्तरं सः यथा स्वीकुर्यात् तथा उपदेशितं कान्तासंहितया उपदेश्यः इति। काव्यं सर्वदापि कान्तासंहितया उपदेशाय कल्पते। कान्ता यथा वशीकृत्य अनन्तरं यद्वक्तव्यं तद्वदति तद्वदेव काव्यमपि अस्माकं मनः आकृष्य अनन्तरं यदुपदेष्टव्यं तद् अतः कान्तासंहितया उपदेशयुगे उपदेशं कर्तुम् उपदेशाय कल्पते इति युग् नाम उपदेशसहितम् उपदेशेन प्रयोजनं तादृशम् उपदेशयुगे काव्यं भवति। अतः काव्यस्य प्रयोजनानि कानि इति वदन्ति चेत् यशः अनन्तरम् अर्थः व्यवहारज्ञानम् अशिवस्य निवारणम् अनन्तरं सद्यः परनिर्वृत्तिः कान्तासंहितया उपदेशः उपदेशः कल्पते एतदर्थं काव्यं भवति इति वक्तुं शक्यते। इदानीम् अत्र एकैकस्यापि किञ्चित् विवरणं भवति। यशः इत्युक्तं कालिदासादीनां वा यशः कालिदासः काञ्चिदेव कार्याणि लिखितवान् किन्तु सः तस्मात् कारणात् अजरामरः जातः तस्य तादृशी किमिति कालिदा कालिदासीदान कालिदासादीनामिव यशः कलिना प्राप्तं श्रीहर्षादेः धावकादीनामिव धनम्। श्रीहर्षः इत्येकः सुप्रसिद्धः महाराजः श्रीहर्षस्य भवतां किमपि आसीत् वा
नैषधीयप्रसिद्धमस्ति।
तस्य आस्थाने धावकः इति कश्चन कविः आसीत्। तद्धावकः किमपि कार्यं लिखितवान् तस्य निमित्तं श्रीहर्षेण भूरिधनं तस्मै दत्तम् इति बहुधनम् अक्षरलक्षम् इति वदन्ति किल तथा बहुधनं दत्तवान्। अतः श्रीहर्षादयः कवयः धावकादिभ्यः कविभ्यः श्रीहर्षादयः दाता राजानः धावकादिभ्यः बहुधनं दत्तवान् तद्वद्धनप्राप्तिः भवितुं शक्ति। श्रीहर्षादेः धावकादीनामिव धनम् अनन्तरं राजाधिगत उचित आचारपरिज्ञानं व्यवहारविदे इत्यस्ति किल व्यवहारः नाम कः व्यवहारज्ञानं नाम आचारपरिज्ञानम् आचारपरिज्ञानं नाम कथम् आचारः करणीयः समुदाचारः उत्तमाः आचाराः उत्तमाः आचाराः नाम एतस्य लेखनसमये काव्यप्रकाशस्य लेखनसमये आचारज्ञानं नाम महाराजादीनां समीकरणे तत्र कथं व्यवहारः करणीयः आचारस्य ज्ञानम् राजादिगत उचित आचरणं राजादि तेषां समीपे यः उचितः व्यवहारः तस्य सम्बन्धि ज्ञानम् अनन्तरम् एतद् व्यवहारविधे इत्यस्य अनन्तरमस्ति शिवेतरक्षतिः अमङ्गलक्षतिः अमङ्गलनिवारणम् इत्युक्ते आदित्यादेः मयूरादीनामिव अनर्थनिवारणम् मयूरः इति कश्चन कविः आसीत् सः पूर्वशतकम् इति वदति तद् लिखितवान् तस्य कुष्ठरोगः आसीत् सः यदा एतत् रचितवान् अस्ति इति मन्ये यदा पूर्वशतकं सः विरचितवान् तस्मात् कारणात् तस्य कुष्ठरोगस्य निवारणम् अभवत् एवम् अमङ्गलनिवारणमपि काव्यद्वारा कृतमस्ति आदित्यादेः नाम आदित्यस्य भगवतः कवेः मयूरादीनामि वा अनर्थनिवारणं सम्भवति अनन्तरं सकलप्रयोजनमूलीभूतं समनन्तरमेव रसास्वादनसमुद्भूतं विगलितवेद्यान्तरम् आनन्दम् सर्व इदं बहूनि प्रयोजनानि इत्यपि सन्ति एव तथापि सकलप्रयोजनमूलीभूतं किं सर्वेषु प्रयोजनेषु उपरि तिष्ठति इत्युक्ते अत्यन्तं प्रयोजनं किम् अस्मादृशानां दृष्ट्या उभयता इत्युक्तं किल लेखकस्यापि पठितुः पठितुः मादृशस्य सर्वाधिकं प्रयोजनं नाम किं भवितुमर्हति किं प्रयोजनं भवितुमर्हति इति चेत् एतादृशं सर्वप्रयोजनबहुलीभूतं सर्वस्मादपि प्रयोजनात् अधिकप्रयोजनं किम् इति चेत् समनन्तरमेव रसास्वादसमुद्भूतं विगलितवेद्यान्तरम् आनन्दम् आनन्दः एव तत् कदा लभ्यते इति चेत् समनन्तरमेव तत्र कविः तमुत्तमं काव्यं लिखति चेत् तदुत्तममस्ति इति सः जानाति चेत् लेखनमनन्तरं तस्य काचित् अद्य लिखितवान् तस्य तादृशार्थं भवति पठितायः अस्ति तस्यापि उत्तमं किञ्चित् काव्यं पठति चेत् तदनुक्षणं तस्य तथा सन्तोषः अतः समनन्तरमेव रसास्वादनसमुद्भूतं रसास्वादः भवति समनन्तरमेव तेन समुद्भूतम् इति तद् आनन्दम् ईदृश आनन्दः इति चेत् विगलितवेद्यान्तरम् आनन्दं विगलितवेद्यान्तरम् अन्यत् किमपि वेद्यमेव तदा न भवति यदा अस्य रसस्य आस्वादः भवति तदा अन्यस्य कस्यापि विषयस्य वेद्यं नाम विषयः वेद्यः न भवति ज्ञातः एव न भवति इदानीं कश्चन कदाचित् अतीव दुःखी अस्ति तादृशोपि यदि किञ्चित् उत्तमं साहित्यं पठति चेत् अन्य दुःखादिकं सर्वं विस्मृतं सर्वं वेद्यमेव न भवति अतः विगलितवेद्यान्तरम् अन्यत् सर्वमपि वेद्यान्तरं सर्वमपि विगलितं ततः निर्गतं विनष्टं भवति तादृशम् आनन्दं ददाति विगलितवेद्यान्तरम् आनन्दं ददाति तादृशम् अग्रे प्रभुसंहितशब्दप्रधानवेदादिशास्त्रेभ्यः प्रभुसंहितं नाम किम् इति चेत् यत्र शब्दः एव प्रधानः इदानीं सत्यं वद धर्मं चर इत्यादिकमस्ति किल ते शब्दाः एव प्रधानाः तत्र परिवर्तनम् अस्माभिः न करणीयम् उदाहरणार्थं सन्ध्यावन्दनसमये प्रातः सन्ध्यार्घ्यप्रदानमहं करिष्ये इति उक्त्वा वयं कुर्मः करिष्ये इत्यस्य अहम् अन्यं शब्दं जानामि इति कृत्वा अहं सन्ध्याप्रदानं किं कुर्वे इति अहम् अन्यस्य शब्दस्य प्रयोगं कर्तुं नार्हामि इत्युक्ते एतत् सर्वमपि शब्दप्रधानं तत्र ये शब्दाः प्रयुक्ताः सन्ति ते एव शब्दाः प्रयुक्ताः सत्यं वद इत्यस्ति सत्यं भण असाधमानः अहं वदामि इत्युक्ते मम तथा अनुमतिः नास्ति एते सर्वेपि शब्दप्रधानः प्रभुसंहितशब्दप्रधानवेदशास्त्रेभ्यः अतिरिक्तं तादृशम् इति अनन्तरं सुहृत्संहित अर्थतात्पर्यवत् पुराणादि इतिहासाभ्ये इतिहासेभ्यश्च तदेव पुराण इतिहासादिकम् यत् रामायणं महाभारतम् इत्यादिकं पुराणमपि इतिहासम् तत्र किं प्रधानम् इति चेत् अर्थतात्पर्यवत् अर्थोऽपि प्रधानः तात्पर्यमपि प्रधानः तादृशम् अर्थतात्पर्यवत् पुराणादि इतिहासेभ्यश्च शब्दार्थयोः गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत् काव्यम् काव्यम् इति चेत् शब्दार्थयोः गुणभावे यः शब्दः प्रयुक्तः अस्ति सोपि गौणत्वं प्राप्नोति अर्थोऽपि अर्थो नाम वाच्यः अत्र अन्ततो गत्वा अन्यः लिङ्गार्थः प्रदानः भवति किल अतः शब्दार्थयोः गुणभावेन रसाङ्गभूतव्यापारप्रवणतया रसाङ्गभूतः यः व्यापारः अस्ति तत् प्रवणं नाम तद्विषि प्रवर्तते तादृशं तादृशं विलक्षणं यत् काव्यं लोकोत्तरवर्णननिपुणकविकर्म काव्यं नाम कवेः कर्म कीदृशं कविकर्म इति चेत् लोकोत्तरवर्णननिपुणं लोकोत्तरं किञ्चन वर्णनं कृतं तादृशं लोकोत्तरवर्णननिपुणं कविकर्म इति तद् किं करोति इति चेत् कान्ता इव सरसता आपादनेन अभिमुखीकृत्य कान्ता यथा करोति तथा सरसतां जनयित्वा प्रथमम् अभिमुखं करोतु स्वात्माभिमुखं कृत्वा अनन्तरम् अभिमुखीकृत्य रामादिवत् पतितव्यं न रावणादिवत् इति उपदेशं यथा योग्यं कवेः सहृदयस्य च करोति सम्यक् सर्वम् उक्त्वा अभिमुखीकृत्य अनन्तरं रामादिवत् वर्तितव्यं व्यवहारः करणीयः कथं करणीयः रामादिवत् रामवत् लक्ष्मणवत् आञ्जनेयवत् वा रामादिवत् व्यवहारः करणीयः कथं न करणीयं रावणादिवत् न कर्तव्यं रावणादिवत् व्यवहारः न करणीयः इति उपदेशं यथा योग्यं योग्यं यथा स्यात् तथा कवेः सहृदयस्य च करोति कवेः अपि करोति काव्यं सहृदयस्यापि करोति इति सर्वथा तत्र प्रयत्नीयम् अतः काव्यस्य एतावत् प्रयोजनमस्ति अतः सर्वैरपि काव्यविषये यत्नः करणीयः सर्वैः यत्नः करणीयः इत्युक्ते लेखकैः लेखनविषये यत्नः करणीयः पाठकैः पठनविषये वा यत्नः करणीयः तद्विषये प्रयत्नीयम् भवतां परीक्षादृष्ट्या अहं चिन्तयामि एतदत्यन्तं मुख्यम् इम्पार्टेण्ट् काव्यप्रयोजनानि कानि यदा कदाचित् विस्तरेण भवन्तः एकैकमपि दलकृत्यम् इति वदन्ति एकैकं यशते काव्यं यशते कथं यशते पुरातनमपि लिखन्तु आधुनिकमपि लिखन्तु तस्मिन् अपि कालनिकं पुस्तकं लिखति चेत् धनं सम्पादयितुं वदाति अर्थकृते यशः सर्वम् एकैकमपि लेखितुम् एवं काव्यस्य प्रयोजनम् एवम् अग्रे गच्छामः वा अचिन्तितमे पृष्ठे किं चिन्तयामः अचिन्तितमे पृष्ठे अस्ति कविता सामग्री काव्यस्य कारणम् इति वदन्ति कारणम् एवम् अस्य प्रयोजनम् उक्त्वा कारणम् आह काव्यस्य कारणं किं कारणभूतमूलद्रव्यं किं काव्यस्य कारणं किं कथम् उत्पद्यते इति चेत्
शक्तिर्निपुणतालोकः इति हेतुस्तदुद्भवे
तदुद्भवे नाम काव्यस्य उद्भवे तदुद्भवे नाम काव्यस्य उद्भवे हेतुः कः इति चेत् एकः हेतुः कः हेतुः इति चेत् एकं तु शक्तिः अनन्तरं निपुणता निपुणता नाम का इति चेत् लोकशास्त्रकाव्याद्यवेक्षणात् निपुणता अनन्तरं काव्यज्ञशिक्षया अभ्यासः इति हेतुः प्रश्नः भवितुम् अर्हति त्रयः अंशाः उक्तास्सन्ति के इति चेत् शक्तिः निपुणता अभ्यास त्रीन् अंशान् उक्त्वा अनन्तरं तदुद्भवे हेतुः कारणं निश्चितवान् अस्ति इति किञ्चित् स्थिरः नष्टं भवितुम् अर्हति अग्रे तत्र वर्णनं करोति शक्तिः नाम का कविः शक्तिमान् अस्ति इति चेत् बलवान् अस्ति वा कृशः अस्ति वा इति पृच्छति चेत् का नाम शक्तिः इति चेत् शक्तिः कवित्वबीजरूपः संस्कारविशेषः कश्चित् कवित्व बीज रूप कश्चन संस्कार विशेष तस्य अंतरं क्रियते कांति जनान वे मुदाम किल तेषां यावता प्रयत्नेन किञ्चिदपि न भवति अन्ततो गत्वा संस्कार एव नास्ति इति कुर्मः इति वदामः कश्चन संस्कारः भवति तत् कवित्व बीजरूपः संस्कारः सा शक्तिः इति कथ्यते यां विना काव्यं न प्रसरे तादृशकवित्वबीजं यदि न भवति तत्र काव्यं ततः न प्रसरति एव यां विना काव्यं न प्रसरे प्रसृतं वा उपहसनीयं स्यात् प्रसरति अहमपि लिखामि वा इति कृत्वा यत्किञ्चित् लिखति चेत् उपहासपात्रता अपि लिखामि इति कृतं सहस्रं पुस्तकानि भवन्ति तस्यापि एकं पुस्तकम् आगच्छति तावत् लिखितमपि कदाचित् उपहसनीयम् अतः यां विना काव्यं न प्रसरे प्रसृतं वा उपहसनीयम् उपहसनीयम् अतः प्रथमः नाम शक्तिः नाम कवित्वबीजरूपः संस्कारः एषः प्रथमः द्वितीयः अंशः यः अस्ति किमस्ति निपुणता इति का नाम निपुणता इति चेत् तद् कार्यम् अभवत् वा तर्हि लोकस्य स्थावरजङ्गमात्मकलोकवृत्तस्य शास्त्राणां छन्दोजाकरणाभिधानकोशकलाचतुर्वर्गगजतुरगकटिकादिलक्षणग्रन्थानां काव्यानां च महाकविसम्बन्धिनाम् आदिग्रहणात् इतिहासादीनां च विमर्शनात् निष्पत्तिः कवेः निपुणता भवेत् इत्युक्ते कवेः निष्पत्तिः निष्पत्तिः नाम कविः किं किं जानीयात् इति चेत् उप कवियामसूत्रम् येन वृत्तिर्वयुः मूलं तेषाम् अपेक्षा कः इति चेत् लोकस्य वृत्तं सः जानीमः कीदृशस्य लोकस्य स्थावरजङ्गमात्मकलोकवृत्तस्य सम्पूर्णः प्रपञ्चः कीदृशः इति चेत् स्थावरजङ्गमात्मकः श्रुतवन्तो वा स्थावराः नाम कलाकृताः एव भवन्ति ते स्थावराः भवनम् अस्ति स्थावराः जङ्गमः नाम
चलति
चलति सम्पूर्णं जगत् अपि स्थावरजङ्गमात्मकम् अतः स्थावरजङ्गमात्मकस्य जङ्गमदूरवाणी इति दूरवाणी क्रिय भवति दूरवाणी इति नाम कृतवन्तः अतः स्थावरजङ्गमात्मकलोकवृत्तस्य ज्ञानी इति अङ्गे लोकवृत्तस्य शास्त्राणां नाम केषां शास्त्राणाम् इति चेत् छन्दः व्याकरणम् अभिधानकोश अमरकोश यः अस्ति तस्य अभिधानकोश इति छन्दः व्याकरणम् अभिधानकोशः कला चतुष्षष्टिकलाः सन्ति चतुर्वर्ग नाम धर्मार्थकाममोक्ष इति चतुर्वर्गः अनन्तरम् अन्ये शास्त्रग्रन्थाः गज सुरग खड्गालक्षणग्रन्थाः गजलक्षणं हस्तिलक्षणं खड्गलक्षणम् इत्यादि ग्रन्थाः सन्ति ते सर्वे गजतुलगखड्गादिलक्षणग्रन्थानां काव्यानां च अन्येषां केषाञ्चित् काव्यानां ज्ञानम् आवश्यकं काव्यानां च केषां महाकविसम्बन्धिना सर्वाणि न पठन्ति चेदपि महाकविकाव्यानि वा पठितवन्त अनन्तरम् आदि इति शब्दः अस्ति किल तत्र आदि शास्त्राध्यवेक्षणात् आदिशब्देन इतिहासादीनां च विमर्शनात् उत्पत्तिः लभ्यते कवि एतावत् सर्वं पठति चेत् तस्य विमर्शनं भवति चेत् तस्मिन् निपुणता लभ्यते उत्पत्तिः लभ्यते तदपेक्षितम् अतः इदानीं कथमस्ति इत्युक्ते सः किञ्चिदेव जानाति इतोपि काव्यं लिखति इति भवति एतावत् ज्ञानम् उत्पत्तिः अपेक्षिता काव्यं कर्तुं विचारयितुं च ये जानन्ति तदुपदेशेन करणे योजने च पौनःपुण्येन प्रवृत्तिः अन्ते किमस्ति अभ्यासः इति अभ्यासः नाम कः इति चेत् काव्यं कर्तुं विचारयितुं च स्वयमेव काव्यं कर्तुं द्वितीयम् अन्यस्य काव्यस्य विचारं कर्तुं विचारयितुं च ये जानन्ति तदुपदेशे इदानीमेव जानन्ति तेषाम् उपदेशः तदुपदेशे करणे योजयन्ति नूतनस्य काव्यस्य करणे तथैव काव्यस्य योजनं सन्तानां काव्यानां योजनं मासं तादृशं कर्तव्यः पुनः पुण्येन प्रवृत्ति भवेत् पुनः पुनः प्रवृत्तिं कुर्वन् भवेत् एवं नित्यं प्रवृत्ति नाम अभ्यासः एवं त्रयः अंशाः भवन्ति के अंशाः वदन्तु शक्तिः त्रयः अंशाः सन्ति इति त्रयः समुदिताः न तु व्यस्ताः अन्ते एषः वदति एते त्रयः अपि समुदिताः नाम एकत्रिताः न तु व्यस्ताः इत्युक्ते सपरेट् किमपि एकमस्ति न एते त्रयः समुदिताः न तु व्यस्ताः तस्य काव्यस्य उद्भवे निर्माणे समुल्लासे च हेतुः त्रिभिः मिलित्वा एकं कारणं तदेकं कारणं एतदेकं कारणम् एतदेकं कारणम् इति न एतेषां त्रयाणां मेलनेन एकं कारणत्वम् अतः उद्भवे निर्माणे समुल्लासे च हेतुः नाम कारणं न तु हेतवः काव्यस्य निर्माणे एते त्रयः हेतवः इति मम्मटः अङ्गीकरोति एतेषां त्रयाणां सन्मेलनेन यत्किञ्चित् सिद्धं भवति तद् एकं काव्यस्य निर्माणम् अतः काव्यस्य कारणं किम् इति पृच्छति चेत् त्रयमपि उक्त्वा एतेषां त्रयाणां मेलनेन एवं काव्यनिर्माणस्य सामग्री अथवा काव्यकारणम् इतः परं तस्य काव्यस्य स्वरूपं किं काव्यं नाम किं तर्हि काव्यं काव्यमिति वदन्ति किल इत्युक्ते काव्यस्य स्वरूपम् उक्त्वा विभागं कृत्वा उदाहरणानि दर्शयन्ति प्रथम अध्याये काव्यम् अग्रे
सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा